देवी उवाच यत् प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन मत्तस्तत्प्राप्यतां सर्वं परिदुष्टा तदामि तत् मार्कण्डेय उवाच ततो वव्रे नृपो राज्यं बिभ्रंष्यन्यजन्मनि अत्रैव च निजं राज्यं हतशत्रुबलं बलात् स्वाभिवैष्यत्ततो ज्ञानं वव्रे निर्विन्नमानसः ममेत्यहमिति प्राज्ञः शङ्कविश्रुतिकारकं देवी उवाच स्वल्पैरहो विर्नृपते स्वं राज्यं प्राप्स्यते भवान् हत्वा रिपूनस्खलितं तव तत्र भविष्यति मृदच्छ भूय सम्प्राप्य जन्मदेवाद्विवस्वतः सावर्णिको नाम मनोर्भवान् भुवि भविष्यति वैश्वर्यत्वया यच्च वरोऽस्मत्तोऽपि वाञ्छितः तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति मार्कण्डेय उवाच इति तत्त्वाथयो देवी यथाभिलषितं वरं बभूवान्तर्हिता सत्यो भक्त्याथाभ्यामभिष्टुता एवं देव्या वरं लब्ध्वा सुरदक्षत्रियशवः सूर्याजन्मसमासाद्य सावर्निर्भवितामनुः क्लीं ॐ ॐ जय जय श्री मार्कण्डेय पुराणे सावर्णिके मन्वन्त्रे देवी महात्म्ये त्रयोदशोऽध्यायः सम्पूर्णम्।